इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् देशस्य स्थिरवृद्ध्यै सर्वकारस्य मन्त्रः पुनः प्रारूपस्य प्रदर्शनस्य इति अस्ति। ह्यः नवदिल्ल्याम् इकोनॉमिक टाइम्स विश्वनेतृमञ्चे सम्बोधयन् सः उक्तवान् यत् विगतेष् दशवर्षेष् भारतीय अर्थव्यवस्थायां 90% वृद्धिः अभवत्। तस्मिन्नेव काले विश्व अर्थव्यवस्थायां 35% वृद्धिः अभवत्। प्रधानमन्त्रिणा प्रतिपादितं यत् जनाः देशस्य उपलब्धीनां साक्षिणः सन्ति, आत्मविश्वासेन च परिपूर्णाः सन्ति। सः उल्लेखितवान् यत् भारतेन प्रायः पूर्वानुमानैः सहयोगिभ्यः च उत्तमं प्रदर्शनं कृतमस्ति। श्रीमोदिना उक्तं यत् तस्य सर्वकारस्य सुशासनाय प्रतिबद्धः अस्ति। सः अवदत् यत् विगतेष् दशवर्षेष् 25 कोटिजनाः निर्धनवर्गात् बहिः समागताः। प्रधानमन्त्रिणा उक्तं यत् तृतीय कार्यकाले तस्य सर्वकारस्य अभिप्रायः अधिकं सुदृढम् अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् महिलास् अत्याचारः, बालकानां सुरक्षा च समाजाय गभीरचिन्तायाः विषयो वर्तते। असौ ह्यः नवदिल्ल्याः भारतमण्डपम् इत्यत्र जनपद न्यायपालिकायाः द्विदिवसीय राष्ट्रिय सम्मेलनस्य उद्घाटनानन्तरम् एतद् उक्तवान्। श्रीमोदी एतदपि उक्तवान् यत् यथाशीघ्रं महिलाः विरुध्य अत्याचार सम्बन्धेष् प्रकरणेष् निर्णयाः विधास्यन्ते, तदैव महिलानां सुरक्षापि सुनिश्चिता भविष्यति। श्रीमोदिना प्रोदीरितं यत् सर्वोच्चन्यायालयस्य 75 वर्षाणि लोकतन्त्रस्य जननीरूपेण भारतस्य गौरवं संवर्धयन्ति। तेनोक्तं यत् सर्वोच्चन्यायालयस्य 75 वर्षाणि भारतस्य संविधानस्य, तस्य सांवैधानिक मूल्यानां च यात्रा वर्तते। असौ कथितवान् यत् भारतस्य जनाः कदापि सर्वोच्चन्यायालयं, भारतीय न्यायप्रणालीं च प्रति प्रश्नं न उत्थापितवन्तः। अनेन प्रोक्तं यत् भारतीय लोकतन्त्रे न्यायपालिका संविधानस्य रक्षकत्वेन मन्यते। प्रधानमन्त्रिणा कथितं यत् एतेषां विधीनां भावना नागरिकः प्रथमः, सम्मानं प्रथमं, न्यायः प्रथमः इति वर्तते। अस्मिन् अवसरे प्रधानमन्त्री सर्वोच्चन्यायालयस्य स्थापनायाः 75 वर्षपूर्त्यवसरे प्रैष चिटिकायाः, नाणकस्य च लोकार्पणं कृतवान्। स्वीये सम्बोधने भारतस्य मुख्य न्यायाधीशः न्यायमूर्तिः डीवाई चन्द्रचूडः उक्तवान् यत् सम्मेलनमिदं अस्मिन् वर्षे मार्चमासे कच्छ नगरे आयोजयिष्यते। अखिल भारतीय जनपद न्यायाधीश सम्मेलनस्य परिणामो वर्तते। निर्वाचनायोगेन ह्यः हरियाणा विधानसभा निर्वाचनस्य मतदानस्य दिनांकाय संशोधनं कृतम्। अधुना मतदानं अक्टूबर मासस्य प्रथमदिनांकस्य स्थाने अक्टूबर मासस्य 5मे दिनांके भविष्यति। आयोगेन विज्ञप्तौ उक्तं यत् अतिपुरातने असोज अमावस्या पर्व समारोहे भागं ग्रहीतुं हरियाणायाः बिश्नोई समुदायः राजस्थानं सम्प्राप्स्यति। अस्मिन् विषये राष्ट्रिय राजनैतिक दलानां एकस्य राज्यस्य राजनैतिक दलस्य अखिल भारतीय बिश्नोई महासभायाः च प्रतिनिधित्वं प्राप्तम्। आयोगेन उक्तं यत् ते बहूनां जनानां मतदानाधिकारात् विमुखं न कर्तुं शक्नुवन्ति, तथा च राज्यस्य विधानसभायाः सामान्य निर्वाचने मतदातृणां सहभागितायाः न्यूनीकरणं कर्तुम् अपि न प्रभवन्ति। आयोगेन एतेष् ज्ञापनेष् विचारं कृत्वा एव मतदानस्य तिथि अक्टूबर मासस्य 5मे दिनांके कृतः अस्ति। निर्वाचनायोगेन एतदपि घोषितं यत् हरियाणा जम्मूकश्मीरयोः मतगणना अक्टूबर मासस्य 4थ दिनांकस्य स्थाने अक्टूबर मासस्य 8मे दिनांके भविष्यति। इति वार्ताः।